जय श्री प्रभुपाद। प्रथम स्कंध अथैकादशोध्याय द्वारका में श्री कृष्ण का राजोचित स्वागत। सुत उवाच आनर्तान सौपव्रज समृद्धान जनपदान स्वकान दधमौ दर्वरम तेषाम विषादम समयन्निव स उच्चकाशे धवलो दरो दरो पिरु क्रमश्याधर स्वर्ण स्वर्णिमा दाद्मायमानः करकंज संपुटे जथाब्जखंडे कलहं स उत्स्वनः तमुपश्रुतनिनदं जगद्भयभयावहं प्रत्युद्ययुः प्रजा सर्वा भर्तृदर्शनलालसः तत्रोपनीतबलयो रवेर्दीपमिवाधृता आत्मारामं पूर्णकामं निजलाभेन नित्यदा प्रत्युत्फुल्लमुखा प्रोचुर हर्ष गदगदया गिरा पितरं सर्वसुहृदम् अवितारमिवार्भकः नताः स्मते नाथ सदाङ्घ्रिपङ्कजं वीरिञ्च वैरिञ्च सुरेन्द्रबन्दितम् परायणं क्षेममिहेक्षताम् परं न यत्र कालः प्रभवेत् परः प्रभो भवाय नस्त्वं भव विश्वभावना त्वमेव माताथ सुहृत्पतिः पिता त्वं सद्गुरुर्नः परमं च दैवतं यस्यानुवृत्त्या कृतिनो बभूविम अहो सनाथा भवता स्म जद्वयम् त्रैविष्टपानामपि दूरदर्शनम् प्रेमस्मितस्निग्धनिरीक्षणाननम् पश्येम रूपम् तव सर्वसौभगम् जर्ह्यम्बुजाक्षापससारभो भवान् कुरुन् मधुन्वाथ सुहृद्दीक्षया तत्राब्धकोटि प्रतिमः क्षणो भवेत् रविम् विना क्षणोरिव नस्तवाच्युत इति चोद्दीरिता वाचः प्रजानां भक्तवत्सलः शृण्वानोऽनुग्रहं दृष्ट्या वितन्वन् प्राविशत्पुरीम् मधुभोजदशारः कुकुरान्धकवृष्णिभिः आत्मतुल्यबलैर्गुप्तां नागैर्भोगवतीमिव सर्वर्तु सर्वविभवः पुण्यवृक्षलताश्रमैः उद्यानोपवनो रामैर्वृत पद्माकर श्रियम् गोपुरद्वारमार्गेषु कृतकौतुकतोरणाम् चित्रध्वजपताकाग्रैरन्तः प्रतिहता तपाम् सम्मार्जित महामार्ग रथ्यापणकचत्वराम् सिक्ताम् गन्धजलैरुप्ताम् फलपुष्पाक्षताम् कुरैः द्वारि द्वारि गृहाणाम् च दध्यक्षत्फलेक्षुभिः सलङ्कृताम् पूर्णकुम्भैर्बलिभिर्धूपदीपकैः निशम्य प्रेष्ठमायान्तम् वसुदेवो महामनः अक्रूरश्चोग्रसेनश्च रामश्चाद्भुतविक्रमः प्रदुम्नश्चारदर्शनश्च साम्बोजाम्बवती सुतः प्रहर्षवेगोच्छसित शयनासनभोजनः वारणेन्द्रम् पुरस्कृत्य ब्राह्मणैः ससुमङ्गलैः शङ्खतूर्जनिनादेन ब्रह्मघोषेण चाद्रितः प्रत्युज्जग्मूरथैर्हृष्टा प्रणयागतसाध्वसः वारमुख्याश्च शतशो यानैस्तद्दर्शनोत्सुकः लसत्कुण्डलनिर्भात कपोलवदनश्रियः नटनर्तकगन्धर्वा सूतमागधबन्दिनः गायन्ति चोत्तमश्लोकचरितान्यद्भुतानि च भगवांस्तत्र बन्धूनाम् पौराणामनुवर्तिनाम् यथाविद्युपसङ्गम्य सर्वेषाम् मानमादधे प्रह्वाभिवादनाश्लेष करस्पर्शस्मिते क्षणैः आश्वासचाश्वपाकेभ्यो वरैश्चाभिमतैर्विभुः स्वयम् च गुरुभिर्विप्रैः सदारैस्थविरैरपि आशीभिर्युज्यमानोऽन्यैर्बन्धुभिश्चाभिषत्पुरम् राजमार्गम् गते कृष्णे द्वारकायाः कुलस्त्रियः हर्माणार्हुर्विप्र तदीक्षणमहोत्सवः नित्यम् निरीक्षमाणानाम् यदपि द्वारकौकशाम् नैव तृप्यन्ति हि दृश श्रियो धामाङ्गमच्युतम् श्रियो निवासो यस्योरः पानपात्रम् मुखम् दृशाम् बाहवो लोकपालानाम् सारङ्गाणाम् पदाम्बुजम् सितातपत्र व्यजनैरुपस्कृतः प्रसूनवर्षैरभिवर्षितः पथि पिशंगवासा वनमालया बभौ घनो जथार्कोडुपचाप वैद्युतैः प्रविष्टस्तु गृहं पित्रोः परिस्वक्तः स्वमातृभिः बबन्दे शिरसा सप्त देवकी प्रमुखा मुदा ताः पुत्रमङ्कमारोप्य स्नेहस्नुत्पयोधरः हर्षविह्वलितात्मानः शिश्चुर्नेत्रजैर्जलहि अथा विशत्स्वभवनम् सर्वकाममनुत्तमम् प्रासादाजत्र पत्नीनाम् सहस्राणि च षोडश पत्न्यः पतिम् प्रोश्च गृहानुपागतम् विलोक्य सञ्जातमनो महोत्सवः उत्तस्थुरारात् सहसासनाशयात् साकम् व्रतैर्व्रीडित लोचनाननः क्रीडाम् शरीरसंस्कारम् समाजोत्सवदर्शनम् हास्यम् परगृहे जानम् त्यजित पुरोषित भर्तृका। जिसका पति प्रदेश गया हो, उस स्त्री को खेल कूद श्रृंगार सामाजिक उत्सवों में भाग लेना, हंसी मजाक करना और पराये घर जाना, इन पांच कामों को त्याग देना चाहिए। जग्गीवल की स्मृति। तमात्म जैर दृष्टि भिरंतरात्मना दुरंत भाव परिरे भिरे पतिम निरुद्धमप्याश्रवदम्ब नेत्रयोर्विलज्जतीनाम् भृगुवर्ज वैक्लवात् यद्यप्यसौ पार्श्वगतो रहो गतस्तथापि तस्याङ्घ्रिजुगम् नमम् नमम् पदे पदे का विरमेत तत्पदाच्चलापि यच्छ्रीर्न जहाति कर्हिचित् एवम् निर्पाणाम् क्षितिभारजन्मनाम् औक्षौहिणीभिः परिवृत्त तेजसाम् विधाय वैरम् श्वसनो जथा नलम् मिथो बधेनो परतो निरायुधः स एष नरलोकेऽस्मिन् अवतीर्णः स्वमायया रेमे स्त्रीरत्नकूटस्थो भगवान् प्राकृतो यथा उद्दामभावपिशुना मलबल्गुहास व्रीडावलोकनिहतो मदनोऽपि जाशाम् सम्मुह्य चापमजहात् प्रमदोत्तमास्ता यस्येन्द्रियम् विमथितुम् कुहकैर्न शेकुः। तमयम् मन्यते लोको ह्यसङ्गमपि सङ्गिनम् आत्मौपम्येन मनुजम् व्यापृण्वानम् जतो बुधः एतदीशनमीशस्य प्रकृतिस्थोऽपि तद्गुणैः न युज्यते सदात्मस्थैर्यथा बुद्धिस्तदाश्रया तम् मे निरेबला मूढास्तैणम् चानुव्रतम् रह अप्रमाणविदो भर्तुरीश्वरम् मतयो यथा। इति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् प्रथमस्कन्धे नैमिषोपाख्याने कृष्णद्वारका प्रवेशो नामैकदशोऽध्यायः।